अथ तृतीयः पादः अनभिहिते कर्मणि द्वितीया तृतीया च होच्छन्दसि अन्तरान्तरेण युक्ते कालाध्वनोरत्यन्तसंयोगे अपवर्गे तृतीया सप्तमी पञ्चम्यौकारकमध्ये कर्मप्रवचनीययुक्ते द्वितीया यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी पञ्चम्यपां परिभिः प्रतिनिधिप्रतिदाने च यस्मात् गत्यर्थकर्मणि द्वितीया चतुर्थ्यौ चेष्टायामनध्वनी चतुर्थी सम्प्रदाने क्रियार्थोपपदस्य च कर्मणि स्थानिनः तुमर्थाच्च भाववचनात् नमस्वस्ति स्वाहा स्वधालं वषड्योगाच्च मन्यकर्मण्यनादरे विभाषा प्राणिषो कर्तृकर्णयोस्तृतीया सह युक्ते प्रधाने येनाङ्गविकारः इत्थं भूतलक्षणे संज्ञोऽन्यतरस्यां कर्मणि हेतौ अकर्तर्यणे पञ्चमी विभाषागुणे स्त्रियां षष्ठी हेतुप्रयोगे सर्वनाम्नस्तृतीया च अपादाने पञ्चमी अन्यारादितरक्ते दिक्शब्दाञ्चोत्तरपदा जाहि युक्ते षष्ठ्यतसर्थप्रत्ययेन येन पाद्वितीया पृथग्विना नानाभिस्तृतीयान्यतरस्याम् करणे च स्तोकाल्पकृच्छकतिपयस्यासत्त्ववचनस्य दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् दूरान्तिकार्थेभ्योद्वितीया च सप्तम्यधिकरणे च यस्य च भावेन भावलक्षणम् षष्ठी चानादरे स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च आयुक्तकुशलाभ्याञ्च सेवायां यतश्च निर्धारणं पञ्चमी विभक्ते साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः प्रसितोत्सुकाभ्यां तृतीया च नक्षत्रे च लुपि प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा सम्बोधने च सामन्त्रितम् एकवचनं सम्बुद्धिः षष्ठी शेषे ज्ञोविदर्थस्य करणे अधीगर्थदयेषां कर्मणि क्रियः प्रतियत्ने रुजार्थानां भाववचनानामज्वरेः आशिषिनाथः जासि निप्रहणनाटक्राथपिषां हिंसायां व्यवर्हपणोः समर्थयोः दिवस्तदर्थस्य विभाषोपसर्गे द्वितीयाब्राह्मणे प्रेष्य ब्रुवोर्हविषो देवतासम्प्रदाने चतुर्थ्यर्थे बहुलं छन्दसि यजेश्च करणे कृत्वोऽर्थप्रयोगे कालेऽधिकरणे कर्तृकर्मणोः कृते उभयप्राप्तौ कर्मणि तस्य च वर्तमाने अधिकरणवाचिनश्च न लोकाव्ययनिष्ठा खलर्थतृणाम् अकेनोर्भविष्यदाधमर्ण्ययोः कृत्यानां कर्तरिव तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्यां चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः अनभिहित इत्थं भूत यतश्च प्रेष्य ब्रुवोस्त्रयोदश इति तृतीयः पादः।